इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। भाजपेति दलस्य वरिष्ठ नेता एवं प्रधानमंत्री नरेन्द्र मोदी सहारनपुरे नैर्वाचनिक जनसभां सम्बोधितवान्। राष्ट्रविरोधि तत्वानि विरुध्य कार्याचरणं कुर्वता जम्मू कश्मीरस्य बारामुलायाम् आरक्षिदलेन सार्वजनिक सुरक्षा अधिनियमान्तर्गतं द्वयोः राष्ट्रविरोधिनोः निगडनं कृतम्। छत्तीसगढ़ राज्य सुरक्षाबलैः साकं जाते एकस्मिन् संघर्षे त्रयः मायोवादिनः मारिताः। राष्ट्रियान्वेषणाभिकरणेन पश्चिम बंगालस्य भूपतिनगरे घटिते विस्फोट प्रकरणे द्वौ मुख्य षड्यंत्रकारिणौ निगडितौ। अपि च आईपीएल प्रतिस्पर्धायाम् अद्य जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दलस्य प्रतिस्पर्धा रॉयल चैलेंजर्स बेंगलुरु दलेन सह भविष्यति। अथ वार्ताः विशदीकृत्य। प्रधानमंत्री नरेन्द्र मोदी प्रोक्तवान् यत् इदं निर्वाचनं केवलं सर्वकारस्य निर्माणार्थं नास्ति, अपि तु निर्वाचनमिदं विकसित भारतस्य निर्माणार्थं वर्तते। विगतेषु पञ्चवर्षेषु भारतेन विश्वे पञ्चमार्थव्यवस्थात्वेन स्वीय नामांकितम्। श्रीमोदिना अद्य सहारनपुरे भाजपायाः प्रत्याशिनः राघव लखनपालस्य एवं प्रदीप चौधरी इत्येतस्य च समर्थने जनसभा सम्बोधयता एवं प्रख्यापितम्। अवसरेऽस्मिन् भाजपायाः वरिष्ठ नेता एवं मुख्यमंत्री योगी आदित्यनाथः अपि उपस्थितः आसीत्। आकाशवाण्याः संवाददातानुसारं श्रीमोदिना कथितं यत् यदि उद्देश्याः समीचीनाः चेत् परिणामाः अपि समीचीनाः भवन्ति। तेनोदीरितं यत् भाजपा सर्वकारः भेदभावेन विना कार्यं करोति। श्रीमोदिना प्रोदीरितं यत् विगत दशवर्षेषु सर्वकारेण कृषकाणां विकासार्थं सततं कार्यं विहितमस्ति। भाजपायाः वरिष्ठ नेत्रा योगी आदित्यनाथेन कथितं यत् वयं भाग्यशालिनः स्मः यतः अस्माभिः नूतन भारतवर्षः दृष्टः यः विश्वगुरुत्वेन अभिज्ञायते। प्रधानमंत्री एवं वरिष्ठ भाजपा नेता श्री नरेन्द्र मोदी राजस्थानस्य अजमेर जनपदस्थ पुष्करस्थाने नैर्वाचनिक जनसभां सम्बोधयति। इयं जनसभा अजमेर पुष्करयोः भाजपा प्रत्याशिनां समर्थने समायोज्यते। राज्ये लोकसभा निर्वाचनार्थं श्रीमोदिनः इयं तृतीया जनसभा वर्तते। अपरत्र कांग्रेस दलेन अद्य स्वीय घोषणापत्रम् आदाय जयपुरे जनसभा समायोज्यते। एतस्याः जनसभायाः सम्बोधनार्थं कांग्रेसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खड्गे, दलस्य वरिष्ठ नेता सोनिया गांधी एवं प्रियंका गांधी इत्येते जयपुरे समागताः सन्ति। अस्यां जनसभायां सुखजिन्दर सिंह रंधावा, अशोक गहलोत, प्रमोद तिवारी इत्येतान् समेत्य कांग्रेसस्य अन्य वरिष्ठ नेतारः अपि भागं भजमानाः सन्ति। राष्ट्रविरोधितत्वानि विरुध्य कार्याचरणं कुर्वता जम्मूकश्मीरस्य बारामुलायाम् आरक्षिदलेन सार्वजनिक सुरक्षा अधिनियमान्तर्गतं द्वयोः राष्ट्रविरोधिनोः निगडनं कृतम्। एतौ उधमपुरस्य जनपद कारागारे प्रेषितौ। आरक्षिदलेन कथितं यत् एतौ विरुध्य पूर्वमपि बहूनि प्रकरणानि समंकितानि सन्ति एवं सत्यपि एताभ्यां स्वीय राष्ट्रविरोधि एवं असामाजिक गतिविधिषु परिष्कारः नैव कृतः। छत्तीसगढ़ राज्ये सुरक्षाबलैः साकं जाते एकस्मिन् संघर्षे त्रयः माओवादिनः मारिताः। इयं घटना बीजापुरस्य जनपदस्य उसुर क्षेत्रस्य अरण्ये घटिता। अयं क्षेत्रः तेलंगाना सीम्नः निकटे वर्तते। संघर्षानन्तरं सुरक्षाबलेन त्रयाणां माओवादिनां मृतशरीरेण सह एके 47 अल्पयंत्रयुता भुशुण्डिका सदृशानि शस्त्राणि अधिगृहीतानि। राष्ट्रियान्वेषणाभिकरणेन 22,000 दिसम्बर मासे पश्चिम बंगालस्य भूपतिनगरे घटिते विस्फोट प्रकरणे द्वौ मुख्य षड्यंत्रकारिणौ निगडितौ। एतस्मिन् विस्फोटे त्रयः जनाः मारिताः। अनेन अभिकरणेन अद्य एकस्मिन् वक्तव्ये कथितं यत् एतौ आतंकवादिनौ राज्यस्य पूर्वी मेदिनीपुर जनपदे जनसम्मर्दात् क्षेत्रात् गृहीतौ। जातायाम् एतस्यां जनसम्मर्द घटनायाम् असामाजिक तत्वानां प्रहारेण अस्य दलस्य एकः सदस्यः व्रणितो जातः। प्रशासनिक वाहनमपि क्षतियुतं जातम्। अत्रांतरे अन्यत्र जनसम्मर्देन अन्वेषणाभिकरणस्य दलम् अस्य च सुरक्षाकर्मिणः भूपति नगर आरक्षिस्थानं प्रति गन्तुं निषेधिताः। गृहीतापराधिनोः अभिज्ञानं बलै चरणमैनी मनोव्रत जनाः रूपेण जातम्। उभौ आरोपिणौ आतंकस्य प्रसारे विस्फोट निर्माणकार्ये संलग्नौ स्तः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। भाजपा जनता पार्टीति दलस्य पञ्चचत्वारिंशत्तमे स्थापनादिवसे अस्य दलस्य वरिष्ठनेता प्रधानमन्त्री च नरेन्द्र मोदी दलस्य वरिष्ठनेत्रे अमितशाहाय दलाध्यक्षाय जगत्प्रकाशनड्डा इत्यस्मै कार्यकर्तृभ्यश्च शुभकामनाः अयच्छत्। श्रीमोदी एकस्मिन् सामाजिक सन्देशपटले दलकार्यकर्तृभ्यः वर्धापनानि प्रदत्तवान् अपि च वर्षेभ्यः दलनिर्माणे कार्यकर्तृणां कठिनपरिश्रमान् संघर्षान् योगदानानि च प्रति आभारम् अभिव्यक्तवान्। असौ अवदत् यत् दलस्य एनडीए दले समावेशनं गौरवस्य वार्तास्ति। अत्रान्तरे श्रीमोदी सहारनपुर क्षेत्रे स्वीयोद्बोधने कथितवान् यत् असंख्यजनाः भाजपेति दले समाविष्टाः यतो हि अनेन दलेन जनानां विश्वासः विजितः। अस्य कारणम् अन्यमपि अस्ति यत् अस्मै दलाय राष्ट्रं प्रथमम् अस्ति। एवञ्च अयम् उद्घोषः नैव वर्तते अपि तु अस्माकं विश्वासो विद्यते। स्थापनादिवसम् अभिलक्ष्य श्री अमितशाहेनापि दलकार्यकर्तृभ्यः धन्यवादाः प्रकटिताः। श्रीनड्डा अपि दलस्य राष्ट्रव्यापी विस्ताराय वरिष्ठनेतृन् प्रति आभारम् अभिव्यक्तवान्। दिल्ली न्यायालयेन मद्यनीति प्रवञ्चनायां धनशोधन प्रकरणे आम आदमी पार्टीति दलस्य नेता एवं दिल्ल्याः पूर्व उपमुख्यमन्त्री मनीष सिसोदिया इत्येतस्य निगडनावधिः अप्रैल मासस्य अष्टादश दिनांकं यावत् संवर्धिता। निगडनावधेः समाप्तौ राउज एवेन्यू न्यायालयस्य विशेष न्यायाधीशेन कावेरी बावेजा इत्यनया तस्य निगडनावधिः समेधिता। प्रकरणेऽस्मिन् सहारोपी आपनेता संजय सिंहः अपि कार्याचरणावधौ न्यायालये आसीत्। अस्मिन् प्रकरणे संजय सिंहः साम्प्रतिके काले एव सर्वोच्च न्यायालयेन विमोचितः। राष्ट्रियान्वेषणाभिकरणेन प्रवर्तन निदेशालयेन च आम आदमी पार्टीति दलस्य एते नेतारः मद्यनीति प्रवञ्चनायाम् अनियमिततां उद्दिश्य आरोपिताः। विदेशमन्त्री डॉ एस जयशंकरः प्रावोचत् यत् लाओसे असुरक्षिताः 17 भारतीय कर्मिणः गृहं प्रत्यागम्यमानाः सन्ति। एकस्मिन् सार्वजनिक सन्देशमाध्यमेन डॉ जयशंकरेण लाओसे भारतीय दूतावासस्य प्रशंसा कृता, सहैव तेन लाओ अधिकारिभ्यः अपि समर्थनार्थं धन्यवादः ज्ञापितः। भारत ऋतु विज्ञान विभागेन अद्य श्वश्च देशस्य पूर्वीय उपमहाद्वीपीय क्षेत्रेष् उष्णलहर्याः संभावना प्रकटिता। अद्य ओडिशा, पश्चिम बंगाल, झारखंड, महाराष्ट्र, कर्नाटक, आंध्रप्रदेश, पुडुचेरी, तेलंगाना राज्यानां केषुचित् भागेष् उष्णलहर्याः प्रभावः दरीदृश्यते। ऋतुविभागेन श्वः यावत् तटीय कर्नाटक गोवा राज्ययोः उष्णता भविष्यति। तत्रैव केरल, तमिलनाडु, पुडुचेरी राज्येषु अस्य मासस्य नवम दिनांकं यावत् उष्णता आर्द्रता च भविष्यति। आईपीएल प्रतिस्पर्धायाम् अद्य जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दलस्य प्रतिस्पर्धा रॉयल चैलेंजर्स बेंगलुरु दलेन सह भविष्यति। स्पर्धेयं सायं सार्ध सप्तवादनात् समारप्स्यते। यः प्रतिस्पर्धायां सनराइजर्स हैदराबाद, चेन्नई सुपर किंग्स दलं षडस्तोभैः पराजितम्। भारत ऋतु विज्ञान विभागेन अद्य श्वश्च देशस्य पूर्वीय उपमहाद्वीपीय क्षेत्रेष् उष्णलहर्याः संभावना प्रकटिता। अद्य ओडिशा, पश्चिम बंगाल, झारखंड, महाराष्ट्र, कर्नाटक, आंध्रप्रदेश, पुडुचेरी, तेलंगाना राज्यानां केषुचित् भागेष् उष्णलहर्याः प्रभावः दरीदृश्यते। ऋतु विभागेन श्वः यावत् तटीय कर्नाटक गोवा राज्ययोः उष्णता भविष्यति। इति वार्ताः।